एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म। एतवने अनाथपिण्डदस्य आरामे महता भिक्षुसङ्घेन सार्धम् अर्धत्रयोदशभिः भिक्षुशतैः अभिज्ञाना अभिज्ञातैः स्थविरैः महाश्रावकैः सर्वैः अर्हत् वि